ॐ श्रीं ह्रीं सरस्वत्यै स्वाहा, शिरो मे पातु सर्वतः। श्रीं वाग्देवतायै स्वाहा, फालं मे सर्वदावतु। ॐ ह्रीं सरस्वत्यै स्वाहेति श्रोत्रे पातु निरन्तरम्। ॐ श्रीं ह्रीं भगवत्यै सरस्वत्यै स्वाहा, नेत्रयुग्मं सदावतु। ॐ ह्रीं वाग्वादिन्यै स्वाहा, नासां मे सर्वदावतु। ॐ ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा, चोष्टं सदावतु। ॐ श्रीं ह्रीं ब्रह्मे स्वाहेति दन्तपङ्क्तिं सदावतु। ऐं मित्येकाक्षरमन्त्रो मम कण्ठं सदावतु। ॐ श्रीं ह्रीं पातु मे गृहां, स्कन्दौ मे श्रीं सदावतु। ॐ ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा, मे पातु नाभिकाम्। ॐ ह्रीं क्लीं वाण्यै स्वाहेति मम हस्तौ सदावतु। ॐ सर्ववर्णात्मिकायै पादयुग्मं सदावतु। ॐ वागधिष्ठातृदेव्यै स्वाहा, सर्वाङ्गं सदावतु। ॐ सर्वकण्ठवासिन्यै स्वाहा, प्राच्यं सदावतु। ॐ सर्वजिह्वाग्रवासिन्यै स्वाहाग्निदिश रक्षतु। ॐ ह्रीं श्रीं क्लीं सरस्वत्यै बुधजनन्यै स्वाहा, सततं मन्त्रराजोऽयं दक्षिणे मां सदावतु। ॐ ऐं ह्रीं श्रीं त्यक्षरो मन्त्रो नैऋत्यं सर्वदावतु। ॐ ऐं ह्रीं जिह्वाग्रवासिन्यै स्वाहा, मां वारुणेवतु। ॐ सर्वाम्बिकायै स्वाहा, वायुव्यै मां सदावतु। ॐ ऐं श्रीं क्लीं गद्यवासिन्यै स्वाहा, मामुत्तरेवतु। ॐ ऐं सर्वशास्त्रवासिन्यै स्वाहेशान्यं सदावतु। ॐ ह्रीं सर्वपूजितायै स्वाहा, चोध्यं सदावतु। ॐ ह्रीं पुस्तकवासिन्यै स्वाहो, धूमां सदावतु। ॐ गन्धबीजस्वरूपायै स्वाहा, मां सर्वतोवतु। इति श्री सरस्वती कवचं सम्पूर्णम्।